सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति चतुर्थी विभक्ति, किन्तु तत् गतवर्गे वयं सम्पूर्णतया कृतवन्तः. अतः अद्य नूतनविषयः भवति तत्र अव्ययानि इति. किन्तु चतुर्थी विभक्तिविषये तत्र गृहपाठः आसीत्, सर्वे पञ्चवाक्यानि रचितवन्तः इति मन्ये. हा, कः वक्तुमिच्छति तत्र चतुर्थी विभक्ति उपयुज्य वाक्यं रचयन्तु इति आसीत्? तत्र गीताञ्जलि भगिनी वदति वा? अथवा सूर्यकुमारी भगिनी, कोऽपि कापि? रघुपति महोदय, अस्तु, भवान् वदति वा? अस्तु महोदय, धन्यवादः, वदतु महोदय.
इदानीं पिता पुत्राय फलं ददाति.
पिता पुत्राय
फलं ददाति.
हा, पिता पुत्राय फलं ददाति.
हा, अपि च बालकाय कण्ठशर्करा रोचते.
हा, बालकाय कण्ठशर्करा
मधुरं रोचते.
मधुरं रोचते, समीचीनं महोदय.
अपि कंसः कृष्णाय क्रुध्यति.
हा, कंसः कृष्णाय क्रुध्यते. हा,
कर्णः अर्जुनाय ईर्ष्यति.
हा, सत् समीचीनं महोदय. हा,
बालः ग्रामाय गच्छति.
ग्रामाय गच्छति, हा, समीचीनं महोदय. तत्र ग्रामं गच्छति, अपि ग्रामाय गच्छति इति बहु समीचीनः उपयोगः महोदय तत्र. हा, वयं सर्वदा तत्र द्वितीयविभक्ति एव प्रयोगं कुर्मः खलु, किन्तु चतुर्थीविभक्ति अपि कर्तुं शक्नुमः तत्र. हा, समीचीनं महोदय. हा, उत्तमम्, अस्तु. अन्य कोऽपि वक्तुमिच्छति वा?
अहं वदामि.
हा, वदतु भगिनि, उमा भगिनी वदतु भगिनि.
किम्? ओके,
चतुर्थीविभक्ति उपयुज्य वाक्यं.
गणेशाय मोदकं रोचते, वेरि स्टाण्डर्ड् सेण्टेन्स्.
समीचीनं भगिनि. हा, सत्यं सत्यं भगिनि. हा, सत्यं. हा,
तदनन्तरं पिता
भगिन्यै किं रोचते तदपि वदतु.
चाकलेहं रोचते.
अस्तु, मह्यं
चाकलेहं रोचते.
चाकलेहः रोचते.
चाकलेहः रोचते.
रोचते, समीचीनं.
चिन्तितवती चाकलेहं नपुंसकलिङ्गे शब्दः.
हा, अहं चिन्तयामि चाकलेहः इति, किन्तु
न जानामि
किमपि. अस्तु,
अवलेहः. ओके, चाकलेहः. तदनन्तरं सरस्वत्यै नमः. पिता पुत्राय युतकं क्रीणाति. इतोपि कति आवश्यकम्?
एकम्.
एकं, हा. इदानीम् ईर्ष्यति, क्रुध्यते, तस्य तु सामर्थ्यं नास्ति मम.
कोऽपि कस्मै क्रुध्यति इति तावदेव भगिनि. यस्मिन् को क्रोधः अस्ति, सः यस्मिन् क्रोधः अस्ति सः प्रथमविभक्तौ. यस्य क्रोधः अस्ति, यस्य क्रोधः अस्ति.
बालकाय शुनकः क्रुध्यति.
बालकः शुनकाय कस्य क्रोधः अस्ति? शुनकस्य वा?
न, बालकस्य क्रोधः अस्ति.
बालकस्य क्रोधः, अतः बालकः शुनकाय
क्रुध्यति
इति. समीचीनं.
समीचीनं वा?
हा, समीचीनं. हा, यस्य क्रोधः अस्ति तत् प्रथमविभक्तौ. यं प्रति क्रोधं तद् चतुर्थी विभक्तौ.
चतुर्थी,
ओके.
पर्याप्तं वा?
पर्याप्तं यदि यदि अन्यत् वाक्यमस्ति चेत् वदतु भगिनि. अन्यत् अस्ति चेत्
कल्पते अपि कष्टमस्ति मम कृते.
कल्पते इति तत्र गतवर्गे अभ्यासं कृतवन्तः खलु भगिनि, तत्र कारणम् अपि एतत् चिन्तयतु, कास् एण्ड् एफेक्ट् इति. कारणम् अपि कार्यम् एफेक्ट्, एफेक्ट् भवति चतुर्थविभक्तौ. अहं गतवर्गे
धनिकः यदा अहं वदामि धनिकः धनाय कल्पते, समीचीनं वा?
धनिकः धनाय कल्पते न,
अथवा धनिकः धनाय कल्पते, भिक्षुकः धनाय कल्पते,
न न न इच्छते, न न तत्र किं
तत्र इच्छति,
तत्र कारण इच्छा नास्ति भगिनि. कारणं कारणम् इत्युक्ते तत्र किमर्थम् इति, किमर्थम् इति अर्थे किमर्थम् एतत् करोति. अस्तु, अहं तत्र वाक्यद्वयम् अहं गतवर्गे उक्तवान्, पुनः एकवारं वदामि. तत्र व्यायायं भवति, किमर्थं व्यायामं करोति इत्युक्ते, अहं व्यायायम् आरोग्याय करोमि. तदेव वाक्यम् आरोग्याय व्यायायं कल्पते.
ओ, अहम् आवश्यकं नास्ति तत्र.
तत्र यदि कल्पते इति विषये किञ्चित् मनसि क्लेशः अस्ति चेत् प्रथमतया एतादृशवाक्यं करोतु. तत्र किमर्थम् इति उपयुज्य वाक्यं करोतु.
ओके,
तत्र व्यायामं किमर्थम्? व्यायामम् आरोग्यार्थम्. अस्तु, इदानीम् आरोग्यार्थम् इति स्थाने आरोग्याय कल्पते. अपि अन्यत् वाक्यम् उदाहरणमस्ति, तदपि बहु समीचीनं वाक्यमस्ति. तत्र सिद्धता आवश्यकमस्ति. किमर्थं? परीक्षायां साफल्यार्थं. परीक्षा अस्ति, परीक्षायां साफल्यम् आवश्यकं खलु. अतः साफल्यार्थं किम् आवश्यकम्, अथवा किम् आवश्यकं? सिद्धता आवश्यकम्.
सिद्धता.
अस्तु, इदानीं तदेव किञ्चित् परिवर्तनं कृत्वा वदामः. सिद्धता किमर्थं? किमर्थं सिद्धता? सिद्धता परीक्षायां साफल्यार्थम्
इति साफल्याय
साफल्याय कल्पते. तावदेव.
ओके,
समीचीनं वा?
समीचीनम्.
अस्तु भगिनि,
धन्यवादः.
चिन्ता मास्तु भगिनि. अस्तु, अन्य कोऽपि गीताञ्जलि भगिनी वदति वा, सूर्यकुमारी भगिनी वदति वा?
महोदय, सः क्षुरे राज्यते.
किं भगिनि?
क्षुरे.
तद् इत्युक्ते किं भगिनि?
हङ्गर्. हङ्गर्
क्षुधे.
क्षुद.
अस्तु, तत्र चतुर्थीविभक्तिपदं कुत्र अस्ति? क्षुधेः वा?
क्षुरे बाध्यते, बाधते.
क्षुधे तत्र किमर्थं?
क्षुत्
इत्युक्ते किं भगिनि?
क्षुद्. अहं चिन्तयामि क्षुद् अस्ति.
क्षुद्धि, क्षुद्धि प्रातिपदिकं क्षुद.
चतुर्थीविभक्तिरूपं किमस्ति?
त्रिलिङ्गवचनं.
त्रिलिङ्ग. अस्तु भगिनि, अस्तु. क्षुदे. अस्तु तत्र. अस्तु भगिनि, अस्तु. अतः वाक्यं किं भवति तत्र?
सः क्षुदे बाधते.
क्षुदे बाधते, अर्थं किं भगिनि? वाक्यस्य अर्थः
सफरिङ्ग् वित् हङ्गर्. वित् हङ्गर्.
किन्तु तत्र
हङ्ग्रे क्षुदे
किन्तु तत्र किमर्थम् इति प्रायशः तृतीय माध्यमं केन केन बाध्यते इति तादृशः किन्तु तत्र चतुर्थी चतुर्थी तत्र प्रधानमिति तादृशवाक्यं भवति भगिनि किन्तु चतुर्थी न जानामि रूपं सत्यं भगिनि किन्तु तत्र एकं वदामि तत्र प्रथमतया आङ्ग्लभाषायां वाक्यं कृत्वा तस्य अनुवादं मा करोतु एतत् अहं किं मनसः वदामि एतत् निश्चयेन आवश्यकम् अस्ति संस्कृतेन यदि भवती एकमेव भाषा जानाति चेत् भवती किं भाषा प्रथमतया भाषां पठितवती मातृभाषा किं भवत्याः अस्तु तत्र तेलुगुभाषायां किमपि नूतनतया पठितुं भवती किमपि अन्यत् भाषायाः साहाय्यं स्वीकृतवती वा न खलु प्रथमभाषा केवलं तेलुगु उपयुज्य एव तेलुगुभाषां भवती पठितवती खलु तादृश एव अत्रापि प्रयत्नम् आवश्यकम् अस्ति संस्कृतेन चिन्तनीयं संस्कृतेन एव वाक्यरचनं करणीयं नो चेत् किं भवति आङ्ग्लभाषायाम् एकं रूपं भवति किन्तु तदेव रूपं संस्कृतभाषायां न भवति अतः क्लेशः भवति तावदेव अस्तु अन्यत् वाक्यं भगिनि सरलवाक्यमेव वदतु तत्र बहु विशेषवाक्यम् एतादृशं नास्तु नास्ति केवलम् अभ्यासार्थं तत्र यदि
देवाय देवाय प्रसादं
समर्पयति
महोदय तं क्षुधाबाधके इति प्रयोगसाधु तं क्षुधाबाधके
तं क्षुधाबाधते किन्तु क्षुधा तत्र विभक्ति का भवति तत्र
क्षुधा इति
तत् कर्तुं शक्नुमः महोदय
कर्तृपद अस्ति क्षुधा अपि च कर्मपद अस्ति
सत्यं सत्यं तादृशप्रयोगः भवति इति मन्ये महोदय किन्तु चतुर्थी विभक्तिरूपम् उपयुज्य कथं करणीयम् इति मम मनसि नागच्छति
क्षुदे बाध्यते
अस्तु भगिनि किन्तु तत्र अर्थः कः आङ्ग्लभाषायाम् अर्थः भवति किन्तु संस्कृतभाषायां कः अर्थः तत्र कर्तृपदं किम् सः बाधते तत्र चिन्तयतु भगिनि चतुर्थीविभक्तिरूपं तस्य रूपं कीदृशं भवति एकमस्ति अन्यः अस्ति अहम् एतत् ददामि अन्याय ददामि धानं या अथवा तत्र अन्यत् किं वयं दृष्टवन्तः ददाति इति दृष्टवन्तः यच्छति इति दृष्टवन्तः खलु किन्तु तत्र अथवा किमर्थम् इति स्थाने चतुर्थीविभक्तिरूपं भवति अथवा क्रुध्यति ईर्ष्यति इति भवति तत्र तत्र फ्रम् इत्यर्थे तद् किं भवति कारणपञ्चमी भवति पञ्चमीविभक्तिरूपं किन्तु चतुर्थी मया तादृशरूपं न न
ज्ञातं स्त्रीलिङ्गे शब्दः अस्ति वा अतः क्षुदायै अनुभूतव्यम् इति चिन्तयित्वा सः भोजनं न करोति
क्षुदायै
अनुभवं कर्तुं
न इष्ट्वा न तस्य इच्छा नास्ति
न सः एकः एका व्यक्ति अस्ति यस्य क्षुधा इति किम् अस्ति ज्ञानं नास्ति
अस्तु
अतः कोऽपि वदति ओके भोजनं मा करोतु
अस्तु 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 इदानीम् इदानीं गच्छामि क्षुधाय
अनुभवाय
क्षुधायाः अनुभवाय अनुभवाय इदानीम् अस्तु अस्तु एकं कुर्मः एतत् वाक्यं त्यजामः अग्रे गच्छामः भगिनी सूर्यकुमारी भगिनी क्षम्यतां न न न तत्र भवती प्रयत्नं कृतवती अहम् अतः एतत् तत्र प्रयत्नं समीचीनमेव किन्तु चतुर्थीविभक्तिरूपं कथं तत्र करणीयम् इति अहं न जानामि किन्तु वयम् ईमेल् द्वारा किञ्चित् तस्य अन्वेषणं कुर्मः अस्तु वा अस्तु अस्तु भगिनि अन्यत् वाक्यं कृपया वदतु अस्ति चेत् तत्र केवलं सरलवाक्यं कृष्णाय नमः अच्युताय नमः तदपि समीचीनमेव अस्तु
रामाय नमः
तावदेव तावदेव केवलं सरलवाक्यं तत्र तत्र प्रथमतया अस्माकं कार्यम् अत्र किं भगिनि केवलं व्याकरणस्य किं किं विशेषणम् अस्ति सहस्रेषु वाक्येषु एतत् विशेषवाक्यं तस्य विशेषता कीदृशा कीदृशी एतत् न यत् मनसि अस्ति तद् तत्र बहिः आगन्तव्यम् अस्ति बहुवारं बहुवारं रामायणमः चतुर्थीविभक्ति एतत् यदि पठति अस्तु एतत् चतुर्थीविभक्ति इति अभिज्ञानं भवतव्यं तदेव अतः सामान्यवाक्यं बहुवारं वारं 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 मनसि वचसा भवितव्यं नो चेत् किं केवलं यत् सहस्रेषु एकमस्ति तद् सहस्रेषु पुटेषु पठति पठति अहम् एतद् न अवगच्छामि अस्तु एतद् रूपम् अहं जानामि अन्यत् किमपि अहं न जानामि इति भवति अतः सामान्यरूपं प्रथमतया अस्माभिः ज्ञातव्यम् साधारणवाक्यं बहुवारं तस्य तदनन्तरं विशेषवाक्यं विशेष प्रयोगः कुर्मः किन्तु प्रथमतया साधारणं कुर्मः समीचीनं वा भगिनि चिन्ता मास्तु भगिनि क्षम्यतां अस्तु गीताञ्जलि भगिनि भानुचित्रि महोदय वदतु महोदय
गीताञ्जलि महोदय वदति चेत्
अस्तु गीताञ्जलि भगिनि वदति वा
आं महोदय
अस्तु भगिनि वदतु भगिनि
पुत्रः पित्रे भारवाहं करोति महोदय
भारवाहं अथवा भारं
नयति भारवाहम् इत्युक्ते अहम् इत्युक्ते पुत्रः पित्रे picks up weight, you know, carries his weight, like heavy luggage.
अस्तु
पुत्रः पित्रे भारवाहं करोति इति न समीचीनं वा महोदय?
भारवहं नयति तदपि समीचीनं किमर्थं नयति?
पित्रे
नयति समीचीनमेव अस्ति भगिनि.
समीचीनं
पित्रे एव नयति इति समीचीनमस्ति.
करोति अपि समीचीनं महोदय. भारवहं करोति,
भारवहं करोति प्रायश तदपि. हा किमर्थं करोति? एतत् पित्रे करोति.
पित्रे करोति. अस्तु महोदय. अहम् आनन्दाय श्लोकान् गायामि.
हा समीचीनं भगिनि.
त्वं कस्मै तत् करोषि? सीता आञ्जनेयं रोचते.
तत्र
सीता आञ्जने आञ्जनेया आन् चतुर्थी महोदय. आञ्जन आञ्जनेयाय रोचते. आञ्जनेयाय महोदय.
किन्तु तत्र किं वक्तुम् इच्छति भगिनि? तत्र
सीता आञ्जनेय आञ्जनेयं हनुमान् हनुमानाय रोचते. किन्तु आञ्जने
आञ्जनेयाय
आञ्जनेयाय आञ्जनेयाय आञ्जनेयाय रोचते.
अस्तु, व्याकरणरीत्या वाक्यं समीचीनमेव, किन्तु अर्थः अर्थं न आगच्छामि तत्र.
अस्तु महोदय.
हा मह्यं चाकलेहः रोचते. हा तत्र आञ्जनेयाय अस्तु सीता रोचते. अस्तु हा
सीता माता इव तदा.
हा सत्यं, किन्तु तस्मिन् अर्थे तत्र साधारणतया रोचते इति.
अस्तु महोदय. ऐटम् फार् एन् ऐटम् नाट् फार् अ पर्सन्.
हा इति मम मनसि अस्ति भगिनि. इति अस्ति किन्तु व्याकरणरीत्या समीचीनमेव.
रूढिप्रयोगं नास्ति.
हा सत्यं सत्यं महोदय, किन्तु प्रायशः वक्तुं शक्नुमः, किन्तु न जानामि भगिनि. किन्तु
अस्तु महोदय, समीचीनम्. अहमपि किञ्चित् अहं सन्देशः
तत्र आङ्ग्लभाषायां यथा लैक् इति अस्ति तत्र कोऽपि भेदः नास्ति.
अस्तु महोदय,
किन्तु अत्र रोचते इति साधारणतया तत्र वस्तु एतादृश अस्ति.
किन्तु हिन्दीभाषा अपि महोदय, जैसे सीता आञ्जने को पसन्द करती है, सो देट इज लाइक ओन्ली.
सत्यम् अस्तु, किन्तु सत्यम् अस्ति भगिनि, किन्तु रोचते इति किञ्चित्
भेदः अस्ति. अतः छात्राः गुरुभ्यः सर्वान् आह्वयन्ति.
समीचीनं भगिनि.
बालकौ सख्ये पचतः. अपि अहम् एषां कक्षां रोचते महोदय.
अहं न मह्यं मह्यं
मह्यं मह्यम् एषां कक्ष्यां.
न एषां भवति चेत् तत्र कर्तृपदं किं भवति? किं रोचते इति तत्र यत् रोचते, यत् रोचते सः तद् कर्तृपदं भवति.
अस्तु अस्तु अस्तु.
चाकलेहः रोचते, तत्र चाकलेहः कर्तृपदं.
कर्तृपदम्
कस्मै रोचते तद् भिन्नं.
आम् 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 धन्यवादः महोदय. सा तस्या श्वश्रवे फलानि ददाति. मम माता रामदेवतायै नमः करोति स्म. रामदेवतायै
तत्र देवाय
नमः करोति स्म,
नमस्करोति इति कं नमस्करोति इति एव अस्ति भगिनि द्वितीया विभक्ति.
ओ किन्तु
नमः केवलं नमः
नमः
तत्र
नमः करोति स्म.
न हा तत्र भगिनि तत्र अहं गुरुं नमस्करोमि किन्तु गुरवे नमः.
ओ नमः परं करोति इति समीचीनं नास्ति.
न तत्र तत्र गुरवे नमः इति तत्र अहं गुरवे नमः इति किमपि न भवति. अहम् इति शब्दः तत्र नास्ति, केवलं गुरवे नमः. यः वदति सः नमस्कारं करोति. कं नमस्करोति? गुरुं नमस्करोति. नमस्करोति इति सकर्मकक्रियापदम्. अतः कं नमस्करोति इति भवति तत्र
गुरुं
नमस्करोमि. अतः भवत्याः वाक्यं किं भवति? मम माता रामदेवं नमस्करोति.
किन्तु चतुर्थी अत्र नास्ति. कथं महोदय चतुर्थी योजयामि?
तत्र
न शक्यते.
तत्र सूर्यकुमारी भगिनी उक्तवती मम माता रामदेवाय प्रणामं समर्पयति.
तत्तु चतुर्थी नास्ति.
किमर्थं समर्पयति? कस्मै समर्पयामि? रामाय रामदेवाय समर्पयामि.
पुनः वदतु महोदय. मम
माता रामदेवाय नमस्कारं समर्पयति.
नमस्कारम् अस्तु समर्पयति.
समर्पयति इति तत्र किं भवति? किं समर्पयति अपि कस्मै समर्पयति इति. अतः देवाय समर्पयामि इति तत्र ददाति इति अर्थे अस्ति खलु तत् समर्पणम् अर्पयति इति. तत्र चतुर्थी विभक्ति भवति.
अस्तु महोदय. कर्मणि प्रयोगे कथं चतुर्थी विभक्ति प्रयोग कुर्मः?
समीचीनः प्रश्नः अस्ति भगिनि. अग्रे पश्यामः. इदानीं मास्तु. किन्तु समीचीनः प्रश्नः एव. तत्र किं भवति इति. तत्र ददाति इति किं भवति? मया रामाय नमस्कारः दीयते इति तादृशप्रयोगः प्रायः भवति.
ओ दीयते. अस्तु अस्तु. मया
तत्र मया भावे तत्र भावे प्रयोगः भवति. तत्र कर्मपदं नास्ति अतः कर्मणि प्रयोगः इति नास्ति, भावे प्रयोगः इति भवति.
दीयते. मया रामदेवाय नमस्कारं दीयते.
नमस्कारः दीयते.
ओ नमस्कारः. प्रथमा
इति कृत्वा
प्रथमा. अस्तु अस्तु.
किन्तु तत्
अस्तु. तावदेव महोदय.
नमस्कारं तत्र न समर् एकनिमिष भगिनि प्रायशः ददाति तत्र दीयते इति तत्र तु तत् क्षम्यतां तत्तु कर्मणि प्रयोगः एव. तत्तु कर्मणि प्रयोगः एव. तत्र ददामि अथवा समर्पयामि इति तत्र कर्मपदम् अस्ति खलु अतः कर्मणि प्रयोगः भवति. किन्तु केवलं अस्तु अत्र कर्मणि न कर्मणि एव. नमस्कारः इति तत् कर्तृ कर्मपदम् अस्ति खलु. ददाति इति कर्मपदम् अस्ति अथवा समर्पयामि इति तत्र अपि कर्मपदम् अस्ति इति कृत्वा कर्मणि प्रयोगः अस्ति. किन्तु तद् अग्रे पश्यामः भगिनि.
एकवाक्यं वदामि.
वदतु भगिनि.
विष्णुः गजेन्द्राय वेगेन अगच्छत्
विष्णुः गजेन्द्राय वेगेन अगच्छत् समीचीनमस्ति भगिनि बहु समीचीनमस्ति यथा रघुपतिमहोदय उक्तवान् पूर्वं सः ग्रामाय गच्छति हा तत् समीचीनमस्ति वयं सर्वदा किं वदामः सः ग्रामं गच्छति इति वदामः तदपि समीचीनं तत्र द्वितीयविभक्तिरूपमपि समीचीनं चतुर्थीविभक्तिरूपमपि समीचीनं ग्रामाय गच्छति इति
महोदय पञ्चमी
ग्रामात् इति किन्तु तत्र ग्रामात् आगच्छति इति ग्रामं गच्छति इति नास्ति अर्थः भेदः किन्तु पञ्चमी भवति अर्थभेदः भवति सत्यं महोदय अद्य यां कथां पठितुम् इच्छामः अस्यां कथायामपि एतादृशः प्रयोगः अस्ति चतुर्थीविभक्तिप्रयोगः अस्ति गच्छति इति पश्यामः अस्तु गीताञ्जलि भगिनी अन्यत् वाक्यम् अस्ति वा अथवा
बाणचित्रिणी
धन्यवादः भगिनी अस्तु बाणचित्रिणी महोदय वदति वा
आं महोदय पुत्रः मात्रे संस्कृतसम्भाषणार्थं सुभाषयाः ददाति
मात्रे अस्तु सुभाषयाः ददाति सुभाषयाः दधाति तत्र सुभाषयाः इति पदस्य विभक्ति का महोदय तत्र
प्रथमा बहुवचनं महोदय
हा एतदेव मम चिन्तनमासीत् अतः एव अहं पृष्टवान् तत्र वाक्यं समीचीनमस्ति महोदय तत्र विभक्ति तु
किमर्थं प्रथमवचनं
न सुभाषयः हा सुभाषयः सुभाषयाः या बहुवचने प्रथमविभक्तौ किन्तु तत्र किं ददाति इति कर्मपदं भवति खलु
कर्मपदं भवति चेत् द्वितीय प्रथम द्वितीय एकवचन सुभाषयम्
अथवा बहुवचने सुभाषयान्
सुभाषयान् महोदय अन्यवाक्यं महोदय
वदतु वदतु महोदय
श्रीमान् प्रधानमन्त्री वैज्ञानिकेभ्यः भारतीयवैज्ञानिकेभ्यः सुभाषयान् ददाति सम्यक् वा महोदय
सम्यक् महोदय सम्यक् हा समीचीनं महोदय अन्यत् वाक्यमस्ति वा
तस्मै श्रीगुरवे नमः
हा समीचीनं महोदय तत्र तस्मै श्रीगुरवे इति विभक्ति का तत्र
तस्मै तु चतुर्थीविभक्ति महोदय श्रीगुरवे अपि चतुर्थीविभक्ति महोदय
हा अस्तु इदानीं तस्य प्रथमविभक्तिरूपं किम् सः श्रीगुरुः तस्मै श्रीगुरु गुरवे समीचीनं महोदय अस्तु अस्तु अन्यत् वाक्यं
मह्यं संस्कृतभाषा रोचते
हा समीचीनं महोदय हा उत्तमं हा अग्रे
तदेव महोदय पूर्वम् अकल्पयत्
अस्तु अस्तु महोदय धन्यवादः धन्यवादः तत्र अहं वदामि तत्र सुमन् इति कोऽपि अस्ति वक्तुम् इच्छति वा
महोदय एतदपि वक्तुम् इच्छामि इन्द्राय वशत्
इन्द्राय
वशत्
अस्तु
वासुदेवाय स्वाहा इदं न मम
समीचीनं
महोदय
समीचीनमस्ति चतुर्थी विभक्ति एव सत्यं समीचीनं अस्तु धन्यवादः.
अस्तु
हा धन्यवादः. हा सरला भगिनी अस्तु. भवती एव सुमन् इति अस्ति वा तत्र? किन्तु अत्र एव अस्तु. अस्तु भगिनि अस्तु. नमस्कारः. अहं न ज्ञातवान् भवती अस्ति इति. नमस्कारः भगिनी, स्वागतं. हा अस्तु अस्तु. तर्हि तत्र अद्य नूतनविषयः भवति तत्र अव्ययानि इति. कोऽपि वदति वा अव्ययम् इत्युक्ते किम् इति?
अव्ययम् इति पदम् अस्ति. लिङ्गवचनभेदः नास्ति.
समीचीनं भगिनि.
सुगन्धपदं
लिङ्गं वचनं विभक्ति सर्वं.
हा लिङ्गं वचनं विभक्ति सर्वं. तत्र भेदः नास्ति तत्र अव्ययम् इति. हा अन्य साधारणतया किं भवति पदस्य नामपदस्य किं भवति तत्र? नामपदमस्ति चेत् तत्र रामपदमस्ति चेत् रामेण रामस्य तत्र
विभक्तिप्रत्ययः.
हा विभक्ति विभक्तिरूपं बहुरूपाणि धरति तत् प्रातिपदिकम् अथवा क्रियापदस्य धातुः अस्ति चेत् पट् धातुः अस्ति. तस्य बहुरूपाणि सन्ति. पठति पठसि पठामि पठतु पठः पठेत्. हा तत्र बहु किमपि भेदः भवति. किन्तु अव्ययं तत्र किमपि रूपस्य परिवर्तनं कदापि न भवति इति. तत्र अव्ययम् इति व्ययं न भवति. व्ययः न भवति इति. अतः अव्ययम् इति. तत्र अव्ययम् इति नपुंसकलिङ्गपदम् अव्ययम् अव्यये अव्ययानि इति. अत्र अस्माकं कथा अस्ति अद्य तत्र अन्धाय अनन्धाय देहि इति चतुर्थीविभक्ति विषये कथा. अस्तु तत्र पेज् 157 मध्ये अस्ति तत्र. हा उमा भगिनी आरम्भं करोति वा?
करोमि.
अस्तु भगिनि.
अन्धाय अनन्धाय देहि अव्ययानि एतां कथां सावधानतया पठत. पुरा किं देवलः नाम सर्वशास्त्रकोविदः धार्मिकः ऋषिः आसीत्. तस्य सुवर्चला नाम गुणवती कन्यका आसीत्. सुवर्चला यदा प्राप्तवयस्का जाता तदा देवलः पुत्रीं कस्मै ददामि इति चिन्ताकुलः अभवत्. तदा सुवर्चला एव पितरम् उक्तवती, पितः माम् अन्धाय अनन्धाय देहि इति. तत् श्रुत्वा देवलः अवदत्, पुत्री किमर्थम् उन्मता इव वदसि? तकारस्य द्वित्वमस्ति वा?
उन्मत्ता.
उन्मत्ता इव वदसि इति. सुवर्चला अवदत्, पितः नाहम् उन्मत्ता इव वदामि, सत्यमेव वदामि. भवान् येभ्यः मां दातुं चिन्तयति तादृशान् ऋषिकुमारान् अत्र आनयतु, अहमेव तेषु योग्यं चिनोमि इति.
हा समीचीनं भगिनि, धन्यवादः. अस्तु सूर्यकुमारी भगिनी अग्रे.
त्वं यथा वदसि तथा इति उक्त्वा देवलः तादृशान् ऋषिकुमारान् आनेतुं सर्वेभ्यः आश्रमेभ्यः शिष्यान् प्रेषितवान्. देवलस्य प्रभावं सुवर्चलायाः ख्यातिं च श्रुत्वा बहवः ऋषिकुमाराः तां परिणेतुम् आगताः. देवलः तान् सर्वान् विधिवत् सम्पूज्य पुत्रीम् अवदत्, पुत्री एतेषु योग्यं कस्य? योग्यं वरय, तस्मै ऋषिकुमाराय त्वां दास्यामि इति.
हा, समीचीनं भगिनि. हा, समीचीनम्. अस्तु, अग्रे गीताञ्जलि भगिनी पठति वा?
आं महोदय. सुवर्चला तान् दृष्ट्वा उक्तवती, भवत्सु यः अन्धः अस्ति अनन्दः अस्ति तस्मै पिता मां तस्मै पिता मां दास्यति इति. ऋषिकुमाराः तस्याः वचनं श्रुत्वा विस्मिताः जाताः. ततः सर्वे परस्परं मुखं दृष्ट्वा असन्तोषेण देवलं कटुवचनैः निन्दित्वा स्वस्थानाय गतवन्तः. ततः सुवर्चला सन्तोषेण पितृगृहे एव आसीत्. अथ कदाचित् श्वेतकेतुः नाम न्यायविशारदः ऋषिकुमारः एतं वृत्तान्त श्रुत्वा तत्र आगतवान्, यत्र देवलस्य आश्रमः आसीत्.
हा, समीचीनं भगिनि, धन्यवादः. अग्रे भानुचित्रि महोदय पठति वा?
महोदय,
तत्र
महोदय
देवलः तं विधिवत् इति तत्र
देवलः तं विधिवत् सम्पूज्य पुत्रीम् उक्तवान्. उद्दालकस्य पुत्रः एषः श्वेतकेतुः महाप्राज्ञः अस्ति, एतं वरय इति. सुवर्चला तत् श्रुत्वा कुपिता अभवत्. तदा श्वेतकेतुः ताम् अवदत्, अहम् अन्धः अस्मि अनन्दः अपि अस्मि इति. तत् कथम् इति सुवर्चला अपृच्छत्. श्वेतकेतुः अवदत्, परमात्मानः कारणादेव जीवात्मा
परमात्मनः
अहं पश्यामि. परमात्मनः कारणादेव जीवात्मा अहं पश्यामि शृणोमि जिघ्रामि वा. परमात्मा एव चक्षुः, वस्तुतः सः एव पश्यति नाहम्. अतः अहम् अन्धः, किन्तु मम कदापि संशयः न भवति. अतः संशयाभावरूपं चक्षुः मम अस्ति, अतः अहम् अनन्दः. एवम् अहम् अन्धः अनन्दः अपि इति.
हा, समीचीनं महोदय. अस्तु, तत्र सरलभगिनी अग्रे पठति वा?
आं महोदय. श्वेतकेतोः उत्तरनेन सुवर्चला नितरां सन्तुष्टा अभवत्. सा पितरम् अवदत्, पितः एषः मह्यं रोचते, मया एषः वृत्तः अस्ति, माम् एतस्मै ददातु इति. देवलः अपि अत्यन्तं सन्तोषेण श्वेतकेतवे सुवर्चलां दत्तवान्. सुवर्चला श्वेतकेतोः सह धर्मचरी अभवत्. तौ दम्पती दीर्घकालं यावत् सुखेन
गार्हस्थ्यं
गार्हस्थ्यम् आचरितवन्तौ. एतस्मिन् पाठे कानिचित् अव्ययानि वर्णा अक्षरैः दर्शितानि सन्ति.
समीचीनं भगिनि, धन्यवादः. हा अस्तु, इदानीं तत्र पङ्क्तिशः पश्यामः. तत्र विषयः कः इत्युक्ते अव्ययानि इति. तत्र चतुर्थीविभक्तिरूपाणि अपि दत्तानि सन्ति. हा, तत्र बहुवारं दृष्टवन्तः खलु, अन्धाय अनन्धाय देहि. तत्र अन्धाय अपि अनन्धाय चतुर्थीविभक्तिरूपौ रूपे एव अस्ति. तत्र अन्धाय इत्युक्ते, अन्धः इत्युक्ते कः?
यः द्रष्टुं न शक्नोति.
हा, सः अन्धः. अस्तु, इदानीम् अनन्दः?
यः
द्रष्टुं शक्नोति. हा, किन्तु अत्र किम् अस्ति? अन्धाय अनन्दाय देहि. यः द्वयमपि अस्ति, अन्धः अस्ति अपि अनन्दः अस्ति, तस्मै मां देहि. सः अन्धः अपि अनन्दः इति. सः एव मूलविषयः अत्र. तत्र अस्तु, अव्ययम् इति तत्र बहुवारम् आगच्छति इति कृत्वा तत्र अव्ययस्य टापिक् अस्ति. अस्तु, तर्हि तत्र पङ्क्तिशः पश्यामः. तत्र रघुपतिमहोदय आरम्भं करोति वा?
आम् महोदय. पुरा देवलः नाम सर्वशास्त्रकोविदः धार्मिकः ऋषिः आसीत्. पुरा इति अव्ययमस्ति अत्र. धार्मिकः ऋषिः आसीत् इति कर्तृपदम्
आसीत्. समीचीनं
अस्तु. तस्य सुवर्चला नाम गुणवती कन्यका आसीत्. तत्र
किमपि तत्र धार्मिकः इत्युक्ते
हा ऋषिः अस्ति. कीदृशः ऋषिः? सः सर्वशास्त्रकोविदः धार्मिकः अपि ऋषिः. तस्य विशेषणविशेषभावः अस्ति.
विशेषणविशेषभावः. तत्र धार्मिकः इत्युक्ते धर्मम् आचरति इति वा?
हा, य धर्मम् आचरति, धार्मिकः.
धर्मोऽपि तत्र सर्वशास्त्रकोविदः.
सर्वशास्त्रेषु सर्वशास्त्रं यः अधीतवान् सः सर्वशास्त्रकोविदः.
हा, अतः तस्य सर्वशास्त्रेषु तस्य निपुणता अस्ति.
निपुणता अस्ति.
हा, स तादृश पूर्व ऋषिः एषः. तस्य नाम देवलः. समीचीनं महोदय. हा अस्तु, अग्रे.
तस्य षष्ठीभक्ति सुवर्चला नाम गुणवती कन्यका आसीत्. कन्यका आसीत् सा कीदृशी कन्यका? गुणवती कन्यका.
गुणवती इत्युक्ते किं?
गुणवती या या गुणेन युक्ता अस्ति सा गुणवती.
हा, अत्र गुणः इत्युक्ते किमपि गुणः भवितुम् अर्हति वा?
न, गुणवती इत्युक्ते तत्र सद्गुणः.
हा, सद्गुणः एव. हा, दुर्गुणः दुर्गुणः न तत्र. केवलं गुणवती इत्युक्ते सुगुण सुगुणा इति तादृशार्थे. सद्गुण
महोदय, कन्या अपि च कन्यका भेदः कः महोदय?
भेदः नास्ति भगिनि, अर्थसमान समानार्थः.
युवा युवकः.
अस्तु, केवल विवेक्षानुसारं उपयोगं
कर्तुं. हा, तत्र अर्थभेदः नास्ति भगिनि. अस्तु, अग्रे महोदय.
अस्तु, अत्र किमपि अव्ययपदानि
नास्ति. अत्र अव्ययपदं नास्ति. हा अस्तु.
सुवर्चला यदा प्राप्तवयस्का जाता तदा देवलः पुत्रीं कस्मै ददामि इति चिन्ताकुलः अभवत्. अत्र यदा तदा इति अव्ययपदौ पदे अव्ययपदे पदे स्तः अस्तु.
अपि इति अपि अस्ति. हा, इति अपि रक्तवर्णे न दत्तं, किन्तु
सुवर्चला यदा प्राप्तवयस्का जाता यदा जाता तदा अस्तु. पुत्रीं कस्मै ददामि इति तत्र चतुर्थी विभक्ति अस्ति.
तत्र वाक्यत्रयम् अस्ति महोदय, तत्र त्रीं कस्मै ददामि इति एकं वाक्यं खलु, लघुवाक्यं तत्र
लघुवाक्यं
हा, तत्र पुत्रीं कस्मै ददामि, ददामि क्रियापदं, कं ददामि अथवा कां ददामि, पुत्रीं ददामि, अपि कस्मै ददामि इति प्रश्नः इति तस्य चिन्ता. तदेकं वाक्यम्. इदानीम् अभवत् इति क्रियापदमस्ति, तत्र देवलः
किं चिन्ताकुलः अभवत्,
तत्र आकुलः इति तत्र विशेषणम् अस्ति. आकुलः, आकुलः इत्युक्ते
चिन्तया आकुलः,
चिन्तया आकुलः, तत्र आकुलः पुल्लिङ्गे, आकुला स्त्रीलिङ्गे, आकुलम् इति नपुंसकलिङ्गे विशेषणं भवति, तत्र आकुलः इत्युक्ते
महोदय, किन्तु चिन्ता अपि
तत्र एङ्क्षियस् नास्ति चेत् एतत् चिन्तयतु ओवर् बर्डन्ड् इति, हा चिन्ताकुलः, चिन्ता इति तत्र किं ओवर् बर्डन्ड् हा चिन्तया आकुलः,
चिन्तया आकुलः स्त्रीलिङ्ग् अस्ति परन्तु तत्र समासः अस्ति अतः चिन्ताकुलः इति, चिन्तया आकुलः, अतः यः सः सत्तत्पुरुषसमासः अस्ति अतः पुल्लिङ्ग अस्ति,
हा सत्यं महोदय सत्यं,
पुल्लिङ्ग
पुल्लिङ्ग पुल्लिङ्ग अस्ति इदानीं, चिन्ता इति स्त्रीलिङ्गे अस्ति किन्तु चिन्तया आकुलः, तद् चिन्ताकुलः, तद् चिन्ता इति नास्ति प्राधान्यम् अस्ति, आकुलः इति प्राधान्यं नास्ति, किन्तु यः चिन्ताकुलः अस्ति सः एव प्राधान्यम् इति कृत्वा तत्र बहुव्रीहिसमासः,
हा
सत्यं सत्यं महोदय, देवलः सः एव देवलः, देवलः चिन्ताकुलः अभवत् किमर्थम्, पुत्री कस्मै ददामि इति तदेव चिन्तनं, हा तेन सः चिन्ताकुलः अभवत्, किन्तु तस्य पूर्वम् अपि एकं भागम् अस्ति तत्र
प्राप्तवयस्का जाता इति, यदा प्राप्तवयस्का जाता इति सतिसप्तमी जाता, यदा जाता तदा
सतिसप्तमी न, केवलं
नास्ति वा,
न केवलं यदा इति, यदा यदा इति यदा तदा तत्र सतिसप्तमी अपि भवति, किन्तु अत्र यदा इति अस्ति अपि सप्तमी अस्ति महोदय, तत्र किं भवति सतिसप्तमी कुत्र भवति, यदा इति यत्र अस्ति
सप्तमी नास्ति तत्र,
हा यदा त्यक्त्वा सप्तमी स्थापयामः
जाते,
हा इति भवति, किन्तु अत्र जाता इति अस्ति, हा
एतत् लिङ्ग सारि एतत् प्राप्तवयस्का जाता इति तस्य
का या तत्र जाता इति किं भवति,
अस्तु अस्तु प्राप्तवयस्कः सुवर्चलायाः एतत् विशेषणमस्ति वा,
हा सुवर्चला अस्ति सुवर्चला, यदा सुवर्चला जाता अस्ति जाता अस्ति, किं किं जाता अस्ति अथवा का जाता अस्ति इत्युक्ते प्राप्तवयस्का जाता, प्राप्तवयस्का जाता इत्युक्ते किम् अर्थः कः, किं किं प्राप्तवती, किं प्राप्तवती वयस् 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 वयः प्राप्तवती, कीदृशवय तत्र विवाहयोग्या, विवाहयोग्या जाता इति अर्थे अस्ति तत्र, प्राप्तवयस्का जाता इत्युक्ते विवाहयोग्या जाता तत्र, अस्तु तादृश अर्थे तत्र सुवर्चला इति पदस्य प्राप्तवयस्का जाता इति विशेषणं भवति,
पुल्लिङ्गे प्राप्तवयस्कः जातः यदा सः प्राप्तवयस्कः जातः,
हा सत्यं
लिङ्गत्रये अपि भवति,
अग्रे तदा
तदा त्वच्चला एव पितरम् उक्तवती पिता पितः अपि च इति
महोदय न न श्रुतवान् माम् अन्धाय इति ततः
इदानीं श्रूयते वा
इदानीं श्रूयते इदानीं श्रूयते
तदा सुवर्चला एव पितरम् उक्तवती पिता पितः माम् अन्धाय अनन्दाय देहि इति तत्र तदा एव इति शब्दत्रयं अव्ययानि पितरम् उक्तवती वच्चला उक्तवती इति एकम् उक्तवती पितरम् उक्तवती विभक्ति द्वितीयविभक्ति कर्मपदमस्ति उक्तवती क्रियापदमस्ति वच्चला पिता सम्बोधनं माम् इति माम् इति माम् अन्धाय अनन्दाय देहि इति माम् इति द्वितीयविभक्ति माम्
कर्मपदं
कर्मपदं
देहि
अन्धाय माम् देहि
कस्मै देहि
कस्मै देहि अन्धाय अनन्दाय देहि
इति तत्र कर्तृपदं किम्
अन्ध एकनिमिषं पितः देहि
हा किमर्थं त्वं
देहि
देहि देहि इति क्रियापदमस्ति देहि इति क्रियापदमस्ति तत्र पुरुषः कः पुरुषः अतः कर्तृपदं त्वं हा त्वम् इति भवति समीचीनं समीचीनं हा अग्रे
अग्रे तत् श्रुत्वा इति अस्ति त्वान्तरूपमस्ति अतः अव्ययमस्ति तत् श्रुत्वा देवलः अवदत् पुत्री किमर्थम् उन्मत्ता इव वदसि इति उन्मत्ता इव अपि च इति श्रुत्वा पदत्रयम् अव्ययानि अव्ययं पुत्री किमर्थम् उन्मत्ता इव वदसि इति तत्र वदसि इति मध्यपुरुष एकवचनमस्ति त्वं
उन्मत्ता इव इत्युक्ते
उन्मत्ता इव इत्युक्ते उन्मत्तः यः मतिः नास्ति
समीचीनं महोदय अस्तु
सुवर्चनावद पितः नाहम् उन्मत्ता इव वदामि सत्यमेव वदामि भवान् येभ्यः मां दातुं चिन्तयति तादृशान् ऋषिकुमारान् अत्र आनयतु अहमेव तेषु योग्यं चिनोमि इति तत्र इव अपि च दातुम् इति तत्र तुमुन् तुमुन् अस्ति तथा कृदन्तं रूपं तुमुनपि यथा त्वान्तरूपमस्ति तदपि अव्ययं दातुं तुमुनपि अव्ययं भवति अत्र इति तत्र अव्ययमस्ति इति अव्ययमस्ति
अतः तत्र तुमुन् रूपं पठितुं कर्तुं सर्वं तादृशं सर्वम् अपि अव्ययमस्ति अपि कृत्वा पठित्वा सर्वं श्रुत्वा तदपि अव्ययमस्ति अपि इति यदा तदा एव यथा तदा तदपि
अव्ययमस्ति
तत्सर्वम् अव्ययमस्ति समीचीनं महोदय तत्र अहमेव तत्र किं तत्र भवान् येभ्यः मां दातुं चिन्तयति मां दातुं येभ्यः तत्र माम् इति कर्मपदं धातुम् इति क्रियासूचकं येभ्यः येभ्यः इति प्रथमविभक्तिरूपं किं भवति येभ्यः तु वचनं किम्
आचार्य बहुवचनमस्ति प्रथम आचार्य प्रथम एकवचनं एकवचने यस्मै यस्मै याभ्यां येभ्यः
समीचीनं महोदय चतुर्थी विभक्ति एकवचनरूपम् अस्ति यस्मै किन्तु इदानीं वचनं बहुवचनम् अस्ति केवलं प्रथमाविभक्तिरूपं कुर्मः चेत् बहुवचने एव तत्र किं भवति यः इति यस्मै यः अपि येभ्यः किं भवति ये यः यौ ये इति यः यौ ये यः यौ ये तद् भवति यस्मै याभ्यां येभ्यः. समीचीनं महोदय. दातुं चिन्तयति तादृशान् ऋषिकुमारान् अत्र आनयतु. आनयतु इति क्रियासूचकं ऋषिकुमारान् कर्मपदं तादृशान् तस्य विशेषणं आनयतु. तत्रापि तत्र आनयतु इति तत्र कर्तृपदं किम् भवान् आनयतु इति समीचीनं. सत्यं सत्यं समीचीनं. अग्रे
महोदय तादृशान् ऋषिकुमारान् इति कर्म बहुवचन कर्मपदम्
आनय आनयतु
इत्युक्ते महोदय
तत्र तादृशाः ऋषिकुमाराः याद् तत्र कीदृश ऋषिकुमाराः प्रथमतया एतत् चिन्तयामः. आनयतु आनयतु इत्युक्ते किं
ब्रिङ्ग्
हा अस्तु ऋषिकुमारान् आनयतु इत्युक्ते केवलम् एकं ऋषिकुमारम् आनयतु इति न बहवः ऋषिकुमारान् आनयतु किन्तु सर्वान् ऋषिकुमारान् आनयतु इति न तेषु यः योग्यः अथवा ये योग्याः सन्ति सुवर्चलां परिणेतुं ये योग्याः सन्ति तान् अथवा तादृशान् ऋषिकुमारान् आनयतु इति स वदति.
किन्तु भवान् इति
भवान् भवान् पितरं वदति
आनय इति भवति चेत्
त्वं भवति किन्तु भवान् आनयतु कान् आनयतु ऋषिकुमारान् आनयतु कीदृशान् तादृशान् तादृशान् इत्युक्ते सत्यं यः तस्य अर्थं जानाति तादृशान् ऋषिकुमारान् किन्तु किन्तु तादृश कथायां तादृश न भवति किन्तु यः योग्यः अथवा ये योग्याः सन्ति तान् सर्वान् ऋषिकुमारान् आनयतु. अस्तु समीचीनं भगिनि. अस्तु रघुपति महोदय केवलं लघुवाक्यमस्ति अहमेव इति
अहमेव तेषु योग्यं चिनोमि इति इति अवयम् अस्ति तेषु सप्तमी विभक्ति योग्यम् अहमेव चिनोमि योग्यं चिनोमि केषु तेषु
तत्र तेषु इत्युक्ते केषु ऋषिकुमारेषु ऋषिकुमारेषु अहमेव योग्यं चिनोमि अहम् एव तत्र समीचीनं महोदय अहम् एव तेषु अथवा ऋषिकुमारेषु ऋषिकुमारेषु योग्यं चिनोमि इति सा उक्तवती. समीचीनं महोदय. अस्तु अग्रे सरला भगिनी वदति
उन्मत्ता इति शब्दस्य अर्थं किम्
उन्मत्ता
एतत्तु गजविषये
सत्यं सत्यं सत्यं
मति मति नास्ति
विकल अस्ति
कंट्रोल नास्ति
मति विकल्पम्
उन्मत्ता तत्र उन्मत्ता इति किं भवति स्त्रीलिङ्गे अस्ति तद् उन्मत्तः इति पुल्लिङ्गे भवति
मतिशब्दः तु स्त्रीलिङ्गी शब्दः
न एतद् विशेषणम् अस्ति उन्मत्तः इति उन्मत्तः उन्मत्ता इति
परन्तु अत्र कस्मिन् अर्थे
उन्मत्तः इति
उन्मत्ता स्त्रीलिङ्गे अस्ति अत्रापि उन्मत्ता
अत्र स्त्रीलिङ्गे अस्ति उन्मत्ता इति अस्ति किन्तु तद् विशेषणं भवति पुल्लिङ्गरूपमपि अस्ति तस्य उन्मत्तः इति
परन्तु अर्थं
समानार्थं
समानः किं
पुरुषः पुरुषः अव्ययं नास्ति किमर्थम् अव्ययम् अस्ति
पुरुषः अस्ति चेत्
गजः उन्मत्तः भवति किन्तु महिला उन्मत्ता भवति तत्र विशेषणमस्ति तत्र उन्मत्तः उन्मत्ता गजः उन्मत्तः किन्तु अत्र देवलः चिन्तयति किं सुवर्चला उन्मत्ता इति किन्तु सा नास्ति अस्तु अस्तु त्वा अस्तु इदानीं तत्र योग्यं चिनोमि अस्तु सरला भगिनी अग्रे
त्वं यथा वदसि तथा इति उक्त्वा देवलः तादृशान् ऋषिकुमारान् आनेतुं सर्वेभ्यः आश्रमेभ्यः शिष्यान् प्रेषितवान् अत्र यथा बहवः लघु लघु वाक्यानि सन्ति एकमेकं कृत्वा वदामि यथा तथा इति भवति अव्ययः तत्र त्वम् इति तद् धातु त्वम् इति एकवचने अस्ति वदसि भवति परस्मै तदिलकारे मध्यमपुरुषे एकवचन क्रियापदम् अस्ति त्वं यथा वदसि तथा इति
एकं तथा इत्युक्ते किं
यथा तथा
किन्तु तदनन्तरं किमपि नास्ति केवलं तथा इति अस्ति यथा त्वं वदसि तथा अहं करोमि समीचीनं भगिनि तथा अहं करोमि
इति अभिप्रायः
अस्ति इति अपि रक्तवर्णे भवितव्यम्
इति उक्त्वा त्वा प्रत्ययः अस्ति तत् अपि तत् अव्ययः भवति इति उक्त्वा देवलः तादृशान् ऋषिकुमारान् आनेतुं सर्वेभ्यः आश्रमेभ्यः शिष्यान् प्रेषितवान् सो तादृशान् ऋषिकुमारान् यथा तत् पुत्री उक्तवती कीदृश ऋषिकुमारान् सा इच्छति तादृशान् ऋषिकुमारान् अन्धाय अनर्धाय इति सो तादृशान् ऋषिकुमारान् भवति द्विवचने बहुवचने द्वितीयाविभक्त्यां बहुवचने आगच्छति तादृशान् ऋषिकुमारान् आनेतुम् इति नी धातु उपसर्गपूर्व तुमन् प्रत्ययः भवति आनेतुम् इति तुमन् अपि अव्ययः अस्ति सर्वेभ्यः आश्रमेभ्यः इति भवति पञ्चमी विभक्ति बहुवचने सर्वेभ्यः आश्रमेभ्यः शिष्यान् प्रेषितवान् शिष्यान् अपि द्वितीयाविभक्त्यां बहुवचने प्रेषितवान् इति भवति देवलः प्रेषितवान् सो इति लङ्लकारः भवति भूतकाले किन्तु प्रयोग अस्ति प्रेषितवान् प्रेषितवती इति
भगिनी तत्र सर्वेभ्यः आश्रमेभ्यः इति तत्र अन्या का विभक्ति भवितुम् अर्हति तत्र
अन्या अपि चतुर्थी विभक्ति भवितुम् अर्हति किन्तु अत्र मम चिन्तनं भवति पञ्चमी विभक्ति अस्ति कुत्र
कस्मात् आनेतुं सर्वेभ्यः तत्र अस्तु अस्तु समीचीनं भगिनि तत् 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 तत्र कस्मात् आनेतुं तत्र आश्रमात् आश्रमात् सर्वेभ्यः आश्रमेभ्यः ऋषिकुमारान् आनेतुम् इति. किन्तु तत्र शिष्यान् प्रेषितवान् इति अस्ति खलु, देवलः शिष्यान् प्रेषितवान्, कुत्र प्रेषितवान्?
आश्रमे आश्रमेषु प्रेषितवान्
तत्र
आश्रमेषु प्रेषितवान् शिष्यान् आश्रमान्
तत्र प्रायशः आश्रमाय इति भवति वा भगिनि? तत्र सः एव मम मनसि किञ्चित् क्लेशः अस्ति. तत्र आश्रमेभ्यः सर्वेभ्यः आश्रमेभ्यः इति चतुर्थी विभक्ति अपि भवितुम् अर्हति रूपं, चतुर्थी विभक्ति रूपं तु अस्ति.
यदि वसुध्यति ईषति दयति असूयति तत्र प्रेषितवान् अहं रोचते न आगच्छति.
अस्तु अस्तु, तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः. अस्तु किन्तु पञ्चमी अपि समीचीनमेव अस्ति, तत्र रूपसमानमस्ति, पञ्चमी अपि समीचीनमेव अस्ति. अस्तु भगिनि, अग्रे
अग्रे देवलस्य प्रभावं सुवत्सलायाः ख्यातिं च श्रुत्वा बहवः ऋषिकुमाराः तां परिणेतुम् आगताः. देवलस्य इति षष्ठी विभक्ति एकवचनम् इति देवलः इति नृपः अस्ति. तस्य प्रभावं सुवचलायाः, सुवचलायाः अपि सुवचला इति तस्य पुत्री, देवलस्य पुत्री सुवचला, तस्य षष्ठी विभक्ति स्त्रीलिङ्गे आगच्छति. सुवचलायाः इति षष्ठी विभक्ति एकवचनं. तस्य सुवचलायाः किं ख्यातिम् इति अपि द्वितीया विभक्ति भवति. ख्यातिं स्त्रीलिङ्गम् एक द्विवचने इकानन्तर देवलस्य प्रभावम् इति प्रभावम् अत्र भवति एकवचने. प्रभावं देवलस्य प्रभावं सुवचनायाः ख्यातिं च श्रुत्वा द्वौ पद द्वे पदे अवयवे स्तः च अपि श्रुत्वा त्वा प्रत्ययमस्ति. बहवः ऋषिकुमाराः तत् अपि ऋषिकुमाराः भवति प्रथमाविभक्ति बहुवचने. तस्य विशेषणं भवति बहवः यथा गुरु गुरु गुरवः इति बहुवचने आगच्छति. बहवः ऋषिकुमाराः ताम् इति मीन्स् सुवचनं द्वितीया भवति एकवचनं. पर्णेतुं मीन्स् विवाहः कर्तुं तु परि उपसर्ग धातु सुमन् प्रत्यय पर्णेतुम् इति आगच्छति. आगताः तत्र ते ऋषिकुमारः तत्र देवल तत्र आगते
अस्तु समीचीनं भगिनि. अस्तु तत्र तस्मिन् वाक्ये क्रियापदं किम् अस्ति?
अत्र क्रियापदम् आगताः अस्ति पर किन्तु आगताः कृता कृतान्तप्रत्ययमस्ति तस्य
तत्र तदनन्तरं किं तत्र यदि चिन्तयामः क्रियापदम् अस्ति किन्तु न दत्तम् अस्ति तत्र किं स्थापितुं शक्नुमः? तत्र
आगताः आसन् इति
अथवा आसन् आगताः आसन् आगताः आसन् समीचीनं भगिनि. अत्र अपि तत्र कर्तृ तत्र देवलस्य प्रभावम् अपि सुवर्चलायाः ख्यातिम् इति तत्र विभक्ति समीचीनं भगिनि. तत्र ऋषिकुमाराः किं कुर्वन्ति? ऋषिकुमाराः आगताः परिणेतुम् आगताः आसन्. कां परिणेतुम् आगताः आसन्? सुवर्चलां आगताः आसन्. किमर्थं
सुवर्चलां
सुवर्चलां
सुवर्चलायाः ख्यातिम्
न एकनिमिष एकनिमिषे तत्र आगच्छामः भगिनि एकनिमिषे आगच्छामः तत्रैव तत्र तत्रैव तत्र एकनिमिषे तत्र कां परिणेतुं तां सुवर्चलां परिणेतुं सर्वे ऋषिकुमाराः बहवः ऋषिकुमाराः आगताः आसन् किन्तु किमर्थं ते इच्छन्ति सुवर्चलां परिणेतुं ते किं कृतवन्तः पूर्वं ते देवलस्य प्रभावस्य विषये श्रुतवन्तः सुवर्चलायाः ख्यातिः विषये अपि ते श्रुतवन्तः अतः देवलस्य प्रभावं श्रुत्वा सुवर्चलायाः ख्यातिम् अपि श्रुत्वा तस्मात् कारणात् ते सर्वे तां सुवर्चलां परिणेतुम् आगताः आसन्।
महोदय अत्र च इति अव्यय द्वयोः
समूहं सूचयति किं सूचयति देवलस्य प्रभावम् एकम् अन्यत् ख्यातिं कर्मपदसमूहं सूचयति तत्र किं श्रुत्वा सुवर्चलायाः ख्यातिम् अपि देवलस्य प्रभावम्
इति एक वाक्यम् अस्ति महोदय देवलस्य प्रभावं सुवर्चलायाः ख्यातिं
किन्तु तत्र कर्तृपदं
कर्ता
ऋषिकुमाराः बहवः बहवः तत्र त्वान्त अस्ति चेत् किं भवति वाक्यद्वयं भवति खलु प्रथमक्रिया अस्ति द्वितीया क्रिया अस्ति प्रथमक्रिया अत्र अस्ति शृण्वन्ति किं के शृण्वन्ति बहवः ऋषिकुमाराः देवलस्य प्रभावं सुवर्चलायाः ख्यातिं शृण्वन्ति तदनन्तरं वाक्यद्वयम् अस्ति वाक्यद्वये द्वितीयवाक्यम् अस्ति ते इत्युक्ते बहवः ऋषिकुमाराः ते ताम् इत्युक्ते सुवर्चलां परिणेतुम् आगताः ते सर्वे आगच्छन्ति
यदि च नास्ति तदनन्तरमपि समानेव अर्थः अस्ति
किं किमर्थं तत्र च इति आवश्यकं खलु नो चेत् तत्र समूहः इति कर्मपदम् इति किं भवति खलु
बहवः ऋषिकुमाराः देवलस्य प्रभावं सुवर्चलाः ख्यातिं
तत्र अस्तु तत्र एतादृशम् अस्ति चेत् च पदस्य तत्र च इति समूहस्य सूचना न आवश्यकं वा तत्र कुत्रापि
न महोदय अहं न
तत्र भगिनि तत्र पाण्डवाः काः पञ्चपाण्डवाः काः न के क्षम्यतां हा के हा के पाण्डवाः पञ्चपाण्डवाः के
भीम अर्जुन
युधिष्ठिरः
भीमः अर्जुनः
नकुलः
सहदेव च
किमर्थं स च इति उक्तवती भवती
तत्र अहम् अवगतं महोदय किन्तु अत्र ख्यातिं
न न भगिनि तत्र केवलं ख्यातिम् इति नास्ति भगिनि तत्र किं श्रुत्वा इति अस्ति शृण्वन्ति वदतु महोदय असत्यं प्रभावं ख्यातिं च
प्रभावम् अपि च ख्यातिं
ख्यातिम् इत्युक्ते किमर्थं
ख्यातिं ख्यातिम् इति प्रसिद्धिः
ओ प्रसिद्धिः अस्तु रेप्युटेशन्
प्रभावः इत्युक्ते
इन्फ्लुयेन्स्
हा समीचीनं प्रभावः तत् तयो तत् समानं नास्ति खलु भिन्नभिन्न वार्ता अस्ति खलु तत्र
सो रेप्युटेशन् श्रुत्वा
एकम् अपि
प्रभावं
हा तस्य पितर पितुः प्रभावम् अपि श्रुत्वा
अधुना अधुना अवगतम्
तत्र हा न चिन्ता मास्तु भगिनि तत्र तस्याः ख्यातिम् एकम् अपि तस्याः पितुः प्रभावं द्वितीयम् अतः समूहद्वयमस्ति किन्तु समूह इति चिन्तयामः समीचीनं वा भगिनि इदानीम् अस्तु अस्तु न न चिन्ता मास्तु भगिनि न सर्वं तथैव भवति चिन्ता मास्तु भगिनि चिन्ता मास्तु भगिनि अस्तु सरला भगिनि अग्रे वदतु भगिनि भगिनि तदेव संस्कृतेन वदतु
प्रश्नः अस्ति
मम प्रश्नः
बहवः शब्दः अत्र पुल्लिङ्गे अस्ति एतत् व्याकरणविषये बहवः पुल्लिङ्गे तदनन्तरं बहूनि अपि अहं श्रुतवती तदस्ति किं
बहूनि
स्त्रीलिङ्गरूपं पुत्र कथं भवति बहुवचनम् अस्ति
सरलभगिनी वदतु भगिनि सरलभगिनी तत्र
एकवचने भवी भवति भवी भव्यौ यथा रघुपतिकुमार भक्त भवी भव्यौ यथा नदीवत् भवी भव्यौ भव्यः
इति
तत्र रूपद्वयमस्ति महोदय बहुः अपि भवितुमर्हति बहुः अथवा बह्वी प्रथमः बहू अथवा बह्व्यौ इति द्वितीयद्विवचने बहवः अपि बह्व्यः अपि रूपद्वयमपि स्त्रीलिङ्गे अपि भवितुम् अर्हति इति दत्तमस्ति
अस्तु महोदय अतः अतः बहुः बहु बहवः इति पुल्लिङ्गे स्त्रीलिङ्गे समीचीनमस्ति
समीचीनमस्ति इति इण्टर्नेट् मध्ये
ऋषिकुमारः पुल्लिङ्गे सन्ति
बह्व्यो बह्व्यः एव अहं श्रुतवान् स्त्रीलिङ्गे
स्त्रीलिङ्गे अस्तु इदानीम् उमा भगिनी उत्तरं प्राप्तं वा
इत्युक्ते बहु बहवः पुल्लिङ्गे अपि स्त्रीलिङ्गे अपि समानम् अस्ति
अस्ति इति एका वार्ता अस्ति किन्तु अन्यत् एकं मतम् अस्ति अन्यत् मतम् अस्ति सरलभगिनी किम् उक्तवती बह्वी नदीवत् बह्वी नदी नद्यौ नद्यः बह्वी बह्व्यौ बह्व्यः इति
ओके बहूनि शब्दस्य
एकवचनपुंसिङ्गलिङ्गे
बहु विसर्गं विना
इति बहु बहूनि इति बहुवचने अस्ति तत्र बहु इति एकवचने इति चिन्तयामि
बहु विसर्गं विना एवं वा
बहु इति
नपुंसकलिङ्गे एकवचने
बहु बहूनि 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 इति भवति
बहु बहूनि बहूनि अस्तु
अस्तु
यथा मधु मधुनि मधूनि इति मधु
वस्तूनि वस्तूनि
तादृशं प्रायः अस्ति अस्तु समीचीनम् अस्तु भगिनि अत्र उमा भगिनि उत्तरं प्राप्तं वा
उत्तरं
अस्तु 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 सरला भगिनी तत्र एकमेव अस्ति तत् देवलः
देवलः तान् सर्वान् विधिवत् सम्पूज्य पुत्रीम् अवदत् पुत्री एतेषु योग्यं वरयः तस्मै वरय तस्मै ऋषिकुमाराय त्वां दास्यामि इति देवलः तान् सर्वान् देवलः प्रथमा भवति एकवचन तान् सर्वान् भवति द्विवचन बहुवचन द्वितीय
तान् ऋषिकुमारान् सर्वान्
सर्वान् विधिवत् विधिवत् इति यथा विधि पालयितुं सम्पूज्य विधिवत् तेषां सत्कारं कृतवान् इति विधिवत् भवति विधिवत् सम्पूज्य सम्पूज्य इति ल्यप् अस्ति सम्पूज्य तत् भवति अपि अवय अव्यय
अव्यय अतः तत्र ऋषिकुमार राह सन्ति ते सर्वे आगच्छन्ति आगताः आसन् तेषां सत्कारं सत्कारं विधिवत् सत्कारं कृत्वा
कृत्वा पुत्रीम् अवदत्
पुत्रीं देवलः अवदत् किम् अवदत्
पुत्री इति सम्बोधनं भवति अत्र इका आगच्छति सम्बोधने पुत्री एतेषु योग्यं वरय इदानीम् एतेषु योग्यं वरय वरय इति इति भवति क्रियापदं भवति अहं
लोट्लकारम् अस्ति लोट्लकारः अस्ति भगिनि
लोट्लकारे मध्यमपुरुषे
एकवचनं
भवती चिनोषि एतेषां
योग्यः यः इति चिन्तयति तं वरय वरय त्वं वरय
तस्मै भवती पुनः चतुर्थी भवति एकवचने तस्मै ऋषिकुमाराय पुनः चतुर्थी भवति एकवचने त्वां दास्यामि त्वां भवति द्वितीया भवति एकवचने दास्यामि लिट् लकार भवति उत्तमपुरुष एकवचने तस्मै ऋषिकुमाराय सा यदि चिनोति योग्य योग्य
ऋषिकुमारं योग्यं ऋषिकुमारं सा चिनोति
चिनोति
तस्मै ऋषिकुमाराय तस्मै ऋषिकुमाराय
तस्यै ददाति
न तस्मै तस्यै न तस्मै
सा चिनोति तं देवलः तस्यै ददाति
किमर्थं
स्वचलायै ददाति
स्वर्चलायै न ददाति सुवर्चलां तस्मै ददाति तत्र भगिनि तत्र यः इति अस्ति तत्र यम् इति अस्ति यः सः प्रथमभागे सा इति अस्ति किन्तु यम् इति यः
ऋषिकुमाराय अन्य अहं विपरीतस्वरे अपि उक्तवती
यं योग्यं ऋषिकुमारं चिनोति सा चिनोति तस्मै ऋषिकुमाराय त्वां दास्यामि तस्मै दास्यामि तत्र सा इति त्यजामः एतत् चिन्तयतु यं योग्यं ऋषिकुमारं चिनोषि वा तत्र मध्यमपुरुषे किं चिनोषि वा चिनोषि तस्मै त्वां दास्यामि अथवा ददामि इति इति समीचीनं भगिनि धन्यवादः तत्र सर्वे अवगतवन्तः वा
विवाहं करोतु
तत्र वरय्य इति तत्र योग्यं वरय्य इत्युक्ते किम्?
किन्तु भवान् उक्तवान् वरय लोट महोदय, कथं
लोट्? लोट् एव अस्ति.
रूपाणि कानि
वरय मध्यमपुरुषे इति चिन्तयामि. मम चिन्तनम् अस्ति, पुनः एकवारं दृष्ट्वा वदामि. अहं चिन्तयामि लोट् लकारः अस्ति इति. किं भगिनि?
वरय इत्युक्ते
वेड् इति वरय.
एतेषु योग्यं
वरय इति.
वरय इत्युक्ते विवाहं करोतु.
त्वम् इति मम चिन्तनं. तत्र वरय मध्यमपुरुषे एकवचने अस्ति इति मम चिन्तनम् अस्ति. अस्तु, तत्र अग्रिमवर्गे तद् पुनः ततः एव आरम्भं कुर्मः. पुनः तद् वाक्यं पुनः एव एकवारं पश्यामः. किन्तु तावत् सर्वे अवगतवन्तः वा? अस्तु, इदानीं इदानीं तत्र मनसि किम् अस्ति? कः अन्धः आनन्दः अपि अस्ति, एषः कः इति. अस्तु अस्तु, अग्रिमवर्गे एतत् तस्य चर्चा भवति. नो चेत्
समाधानं भवति.
समाधानं भवति. नो चेत् इदानीमेव अग्रे पठित्वा अपि समाधानं प्राप्नुं शक्नुमः. अस्तु अस्तु, तर्हि समयः जातः. अग्रिमवर्गे मिलामः. अन्य प्रश्न कोऽपि अस्ति वा? अस्तु अस्तु, सर्वेभ्यो नमः, धन्यवादः. अग्रिमवर्गे मिलामः. नमस्कारः.